वाराही स्तोत्रम् अस्य श्री किरात वाराही स्तोत्र महामंत्रस्य दूर्वासो भगवान् ऋषिः अनुष्टुप् छन्दः श्री किरात वाराही मुद्रा रूपिणी देवता हुं भीजं रं शक्तिः क्लीं कीलकं मम सर्वशत्रुक्षयार्थं श्री किरात वाराही स्तोत्र जपे विनियोगः उग्ररूपां महादेवी शत्रुनाशन तत्परा क्रूरां किरात वाराही वन्देहं कार्यसिद्धये स्वापहीनां मदालस्याम प्रमत्ता मतामसिं दंष्ट्राकरालवदनां विकृतास्यां महारवां ऊध्वकेशी मुग्रधरां सोमसूर्याग्निलोचनां लोचनाग्निस्फुलिंगाधैर्भस्मी कृत्वा जगत्रयम् जगत्रयं मोदयन्ति मट्ठहासैर्मुहुर्मुहुः खड्गं च मुसलं चैव पाशं शोणितपात्रकं दधतीं पञ्चशाखैः स्वैः स्वर्णाभरणभूषिता गुञ्जामालां शङ्खमालां नानारत्नविभूषितां वैरपत्नी कण्ठसूत्रच्छेदनक्षुररूपिणी क्रोधोद्धतां प्रजाहन्तृ क्षुरिकेव स्थितां सदा जितरम्भोरुयुगलां रिपुसंहारताण्डवीं रुद्रशक्तिं परां व्यक्तामीश्वरीं परदेवतां विभज्य कण्ठदं स्त्राभ्यां पिबन्तीं सृजं रिपोः गोकण्ठमिव शार्धूलो गजकण्ठं यथा हरिः कपोतायाश्च वाराही पतत्यशनया रिपौ सर्वशत्रुं च शुष्यन्ति कम्पन्ति सर्वव्याधयः विधि विष्णु शिवेन्द्राध्या मृत्युभीति परायणाः एवं जगत्रयक्षोभ कारक क्रोध संयुतां साधकानां पुरस्थित्वा प्रवदन्ति प्रचरन्तीं भक्षयामि तपः साधक ते रिपून् ते पियानो ब्रह्म जिह्वा शत्रुमारण तत्परां त्वगसृज्मां समेधो स्थित मच्छा शुक्लानि सर्वदा भक्षयन्तीं भक्तशत्रो रचिरात्राणहारिणीं एवं विधां महादेवी याचेहं शत्रु शत्रुपीडनम् शत्रुनाशनरूपाणि कर्माणि कुरु पञ्चमी सर्वशत्रुविनाशार्थं त्वामहं शरणं गतः तस्मादवश्यं शत्रूणां वाराही कुरुनाशनम् पातुमिच्छामि वाराही देवि त्वं रिपुकर्मतः मारयाशु महादेवी तत्कथां तेन कर्मणा आपदशत्रुभूताय ग्रहोत्था राजकाश्चयाः नानाविधाश्च वाराही स्तंभयाशु निरन्तरम् शत्रुग्रामगृहान्धेशान् राष्ट्रान्यपि च सर्वदा उच्चाटयाशु वाराही वृकवत्प्रमथाशु तान् अमुकामुकसंज्ञाश्च शत्रूणां च परस्परम् विद्वेषया महादेवी कुर्वन्तं मे प्रयोजनम् यथा नश्यन्ति रिपवस्तथा विद्वेषणं कुरु यस्मिन् काले रिपुस्तंभं भक्षणाय समर्पितम् इदानीमेव वाराही भुङ्क्ष्वेदं कालमृत्युवत् मां दृष्ट्वा ये जना नित्यं विद्वेषन्ति हसन्ति च दूषयन्ति च निन्दन्ति वाराह्येतान् प्रमारय हन्तु ते मुसलः शत्रून् असनेहे पतनादिव शत्रुदेहान् हलं तीक्ष्णं करोतु शकलीकृतान् हन्तु गात्राणि शत्रूणां दंष्ट्रा वाराहिते शुभे सिंहदंष्ट्रैः पादनखैर्हत्वा शत्रून् सुदुःसहान् उदयन्निपीड्य शत्रूणां गात्राणि महिषो यथा तां स्ताडयन्ते शृङ्गाभ्यां रिपुन्नाशय मेधुना किमुक्तैर्बाहुभिर्वाक्त्यैर चिराच्छत्रुनाशनम् कुरुवश्यं कुरु कुरु वाराही भक्तवत्सले एतत्किरात वाराह्यं स्तोत्रमापन्निवारणम् मारकं सर्वशत्रूणां सर्वाभीष्टफलप्रदम् त्रिसन्ध्यं पठते यस्तु स्तोत्रोक्तफलमश्नुते मुसलेनाथ शत्रूंश्च मारयन्ति स्मरन्ति ये ताक्ष्यारूढां सुवर्णाभां जपे तेषां न संशयः अचिराद्धुस्तरं साध्यं हस्तेनाकृष्य दीयते एवं ध्यायेज्ञपेद्धेवी मा कर्षणफलं लभेत्। अश्वारूढां रक्तवर्णां रक्तवस्त्राध्यलंकृतां एवं ध्यायेज्ञपेद्धेवी जनवश्यमाप्नुयात्। दंष्ट्राद्धृतभुजां नित्यं प्राणवायुं प्रयच्छति। दूर्वास्यां संस्मरेद्धेवी भूलाभं याति बुद्धिमान्। सकलेष्टार्थता देवी साधकस्तत्र दुर्लभः। इति श्री